श्री गणेश पंचरत्न स्तोत्रम्। सदा विमुक्ति साधकम् कलाधरावतंसकम् विलासि लोकरञ्जकम् मुदाकरात् मोदकम् सदा विमुक्ति साधकम् कलाधरावतंसकम् विलासि लोकरञ्जकम् अनायक कनायकम् विनाशिते बुदेत्तकम् नताशुभाशुनाशकम् नमामि तं विनायकम् अनायकैकनायकम् विनाशिते बुदेत्तकम् नताशुभाशुनाशकम् नमामि तं विनायकम्। नतेतरातिभीकरम् नवोदितार्कभास्वरम् नमत्सरारिनिर्जरम् नताधिकापदोद्धरम् नतेतरातिभीकरम् नवोदितार्कभास्वरम् नमत्सरारिनिर्जरम् नताधिकापदोद्धरम् नतेतरातिभीकरम् नवोदितार्कभास्वरम् नमत्सरारिनिर्जरम् नताधिकापदोद्धरम् सुरेश्वरम् निधीश्वरम् गजेश्वरम् गणेश्वरम् महेश्वरम् तमाश्रय परात्परम् निरन्तरम् सुरेश्वरम् निधीश्वरम् गजेश्वरम् गणेश्वरम् महेश्वरम् तमाश्रय परात्परम् निरन्तरम्। लोक शङ्करम् निरस्तदैत्यकुञ्जरम् दरेतरोदरम् वरम् वरे भवत्रमक्षरम् समस्त लोक शङ्करम् निरस्तदैत्यकुञ्जरम् दरेतरोदरम् वरम् वरे भवत्रमक्षरम् कृपाकरम् क्षमाकरम् मुदाकरम् यशस्करम् नमस्करम् नमस्कृताम् नमस्करोमि भास्वरम् कृपाकरम् क्षमाकरम् मुदाकरम् यशस्करम् नमस्करम् नमस्कृताम् नमस्करोमि भास्वरम्।